न विरोधिनी ऋषमियाय पथि मृग विहंग संहतिः घ्नन्ति सहजमपि भूरिभिः सममागता सपदि वैरमापदः नेति पथि पलायनमार्गे विरोधिनी जातिवैरिणी मृगाणां सिंहव्याघ्रादीनां विहंगानां काकोलूकानां च संहतिः संघः ऋषं परस्परक्रोधं नेयाय न प्राप किन्तु सहैव चचार इत्यर्थः तथा हि भूरि प्रभूता भीः यासुताः समं साधारण्येन आगताः आपदः विपत्तयः सहजं स्वाभाविकमपि वैरं सपदि घ्नन्ति नहि संघातव्यसनेषु प्रजायते वैरानुबन्धः इति भावः चमरीगणैर्गणबलस्य बलवति भयेऽप्युपस्थिते वंशविततिषु विषक्त पृथुप्रियबालवालधिभिः आददे धृतिः चमरीति वंशविततिषु वेणुगुल्मेषु विषक्ताः लग्नाः पृथवः भृशं प्रियबालाः प्रियरोमाणः वालधयः पुच्छानि येषां तैः पुच्छोस्त्री लूमलाङ्गूले वालहस्तश्च वालधिः इत्यमरः चमरीगणैः मृगविशेषैः गणबलस्य शिवबलस्य सम्बन्धिनि तद्धेतुकः इत्यर्थः सम्बन्धमात्रविवक्षायां षष्ठी अन्यथा भीत्रार्थानां भयहेतुः इति पञ्चमी स्यात् बलवति प्रबले भये उपस्थिते प्राप्तेऽपि धृतिः धैर्यम् आददे स्वीकृता वालच्छेदभयात् प्राणहानिम् अपि अवगणय्य स्थितमित्यर्थः हरसैनिकाः प्रतिभयेऽपि गजमदसुगन्धिकेसरैः स्वस्थमभिददृशिरे सहसा प्रतिबोध जृम्भितमुखैर्मृगाधिपैः हरेति प्रतिभये भयहेतौ भयङ्करं प्रतिभयम् इत्यमरः प्राप्तेऽपीति शेषः गजमदैः सुगन्धयः सुरभयः केसराः सटाः येषां तैः हतानेकगजैः इत्यर्थः सहसा सेनाकलकलश्रवणानन्तरमेव प्रतिबोधेन निद्रापगमेन जृम्भितानि व्याप्तानि मुखानि येषां तैः मृगाधिपैः सिंहैः स्वस्थं निःशङ्कमेव यथा तथा हरसैनिकाः अभिददृशिरे ईक्षिताः न तु किञ्चित्क्षुभितमित्यर्थः युक्तं चैतत् राजनामधारिणां केसरिणाम् इति भावः बिभराम्बभूवुः अपवृत्तजठरशफरीकुलाकुलाः पङ्कविषमिततटाः सरितः करिरुग्णचन्दनरसारुणं पयः बिभरामिति अपवृत्तजठरैः तत्कालक्षोभात् लुठितोदरैः शफरीकुलैः आकुलाः व्याप्ताः पङ्कैः विषमितानि दुर्गमीकृतानि तटानि कूलानि यासां ताः सरितः करिभिः पलायमानैरिति शेषः रुग्णानां मार्गरोधितया भग्नानां ओदितश्च इति निष्ठानत्वं चन्दनानां रसैः अरुणं करिरुग्णचन्दनरसारुणं पयः बिभराम्बभूवुः भृधातोः भीह्रीभ्रुहुवां श्लुवच्च इति आम्प्रत्ययः श्लुवद्भावश्च कृञ्चानुप्रयुज्यते लिटि इति भुवः अनुप्रयोगः महिषक्षता गुरुतमालनलदसुरभिः सदा गतिः व्यस्तशुकनिभशिलाकुसुमः प्रणुदन्ववौ वनसदां परिश्रमम् महिषेति महिषैः लुलायैः क्षतानि विदलितानि तैः अगुरुभिः तमालैः नलदैः उषीरैश्च सुरभिः सुगन्धिः व्यस्तानि विक्षिप्तानि शुकनिभानि शुकसवर्णानि शिलाकुसुमानि शिलेयाख्याः ओषधिविशेषाः येन सह अतः शीतलः इति भावः कालानुसार्य वृद्धाश्म पुष्पशीतशिवानि तु शैलेयम् इत्यमरः शुकनिभेति स्वरूपकथनम् सदागतिः वायुः वनसदां वनेचराणां परिश्रमं प्रणुदन् अतः मन्द इति भावः मातरिष्वा सदागतिः इत्यमरः ववौ वाति स्म मथिताम्भसो रजविकीर्णमृदितकदलीगवेधुकाः क्लान्तजलरुहलताः सरसीर्विदधे निदाख इव सत्त्वसंप्लवः मथिताम्भस इति सत्त्वसंप्लवः प्राणिसंक्षोभः निदाघः ग्रीष्म इव सरसीः सरांसि कासारः सरसीसरः इत्यमरः मथिताम्भसः संक्षोभितोदकाः रयेण पलायनवेगेन विकीर्णं व्याकीर्णं यथा तथा मृदिताः निष्पीडिताः कदल्यः गवेधुकाः तृणधान्यविशेषाश्च यासां ताः तथोक्ताः तृणधान्यानि नीवाराः स्त्रीगवेधुर्गवेधुकाः इत्यमरः मृदित इति किङिति च इति गुणप्रतिषेधः क्लान्ताः जलरुहलताः पद्मिन्यः यासु ताः एवम्भूताः विदधे चकार इति चालयन्नचलसानुवनगहनजानुमापतिः प्रापमुदितहरिणीदशनक्षतविरुधं वसति मैन्द्रसूनवीम् इतीति इति इत्थम् उमापतिः अचलसानुषु वनेषु उपभोग्यवृक्षेषु गहनेषु दावेषु च जाताः तथोक्तान् सत्त्वानिति शेषः चालयन् मुदितानां हरिणीनां दशनैः क्षताः वीरुधः लताः यस्यां ताम् इन्द्रसूनोः इमाम् ऐन्द्रसूनवीं वसति अत्रेति वसतिम् आश्रमम् वहिवस्यर्तिभ्यश्च इति औणादिकः वसतेः अतिप्रत्ययः प्राप सतमाससाद घननीलमभिमुखमुपस्थितं मुनेः पोत्रनिकषणविभिन्नभुवं दनुजं दधानमथ सौकरं वपुः स इति अथ अनन्तरं सः शिवः घननीलं मेघमेचकं मुनेः अर्जुनस्य अभिमुखम् उपस्थितम् आगतं पोत्रस्य मुखाग्रस्य निकषणेन उल्लेखनेन विभिन्ना विदारिता भूः येन तम् मुखाग्रे क्रोडहलयोः पोत्रम् इत्यमरः हलसूकरयोः पुवः इति ष्ट्रम् प्रत्ययः सूकरस्य इदं सौकरं वाराहं वपुः दधानं दनुजं दानवं आससाद प्राप। कच्छान्ते सुरसरितो निधाय सेनाम् अन्वीतः स कतिपयैः किरातवर्यैः प्रच्छन्नस्तरुगहनैः सगुल्मजालैः लक्ष्मीवाननुपदमस्य सम्प्रतस्थे। कच्छान्त इति लक्ष्मीवान् मादुपधायाश्च मतोर्वोयवादिभ्यः इति मतुपः मकारस्य वकारादेशः। सः शिवः सुरसरितः मन्दाकिन्याः कच्छान्ते अनूपप्रान्ते जलप्रायमनूपं स्यात् पुंसि कच्छस्तथाविधः इत्यमरः। सेनां निधाय स्थापयित्वा इत्यर्थः। कतिपयैः किरातवर्यैः अन्वीतः अनुगतस्सन्। ईगतौ इति धातोः अनुपूर्वात् कर्मणि क्तः। सगुल्मजालैः लताप्रतानसहितैः तरुगहनैः प्रच्छन्नः छादितः वा दान्तशान्त इत्यादिना निपातः। तस्य वराहस्य पदम् अनु अनुपदम् पदानुसारेण इत्यर्थः। सम्प्रतस्थे प्रस्थितः समवप्रविभ्यः स्थः इति आत्मनेपदम् प्रहर्षिणीवृत्तम् इति श्रीमहामहोपाध्याय कोलाचलमल्लिनाथसूरिविरचितायाम् किरातार्जुनीयकाव्यव्याख्यायाम् घण्टापथसमाख्यायाम् द्वादशः सर्गः समाप्तः।